एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। प्रधानमन्त्रिणा केपी शर्मा ओलिना प्रतिनिधि सभायां द्वि तृतीयांशादपि अधिकानां सांसदानां विश्वासस्य मतं प्राप्तं वर्तते। प्रतिनिधि सभाया ह्यस्तनोपवेशे प्रधानमन्त्रिणः ओलिनः विश्वास मत प्रदान सम्बद्ध प्रस्तावमाधृत्य विहिते मतविभाजने प्रस्तावस्य पक्षे अष्टाशीत्युत्तर शतं मतानि, विपक्षे च चतुस्सप्ततिर्मतानि व्यक्तानि आसन्। उपवेशे त्रिषष्ट्युत्तर द्विशतं सांसदः उपस्थिता आसन्। एकं मतं तटस्थम् आसीत्। तत्पूर्वं संसदि विश्वासमत प्रदान सम्बद्धं प्रस्तावं प्रस्तुवन् प्रधानमन्त्री ओली नागरिकेषु वर्धमानं नैराश्यं निरस्य आशाया उत्साहस्य च संसारार्थं देशे तीव्रतया आर्थिकोन्नत्यै च नूतन सर्वकार संघटितोऽस्तीति अभाषत। प्रधानमन्त्री ओली सूचना प्रविधि पर्यटनोर्जः कृषि वनक्षेत्राणि सर्वकारेण अर्थतन्त्रस्य संवाहक क्षेत्राणां रूपेण परिचितानि सन्तीति चर्चयन् उद्योगी व्यवसायीभि एतेषु क्षेत्रेषु एव चिन्तनं निवेशञ्च कर्तव्यम् इत्यवोचत्। प्रधानमन्त्री ओली विधेय शासनस्य जनताया अधिकाराणां च सुनिश्चिततायै न्यायालयं प्रति जनताया विश्वासोत्पादनाय च सर्वकारस्य ध्यानं केन्द्रितं भवतीति प्रावोचत्। उपवेशे नेपाली कांग्रेस दलस्य सभापतिः शेरबहादुर देउवा जनतायां विद्यमानं नैराश्यम् अपसार्य अर्थतन्त्रं गतिशीलं विधातुं देशाभ्यन्तरे वृत्त्युपार्जनस्य अवसरान् स्रष्टुं च सर्वकारेण योगदानं करिष्यते इति विश्वासोऽस्तीति अभाषत। सभापतिः देउवा राजनीतिक स्थिरतायै नेपाली कांग्रेस दलस्य नेकपा एमाले दलस्य च मध्ये सप्तसूत्रीय सहमतेः धरणस्य अनन्तरं वर्तमानः सर्वकारः संघटितोऽस्तीति चर्चयन् सर्वकारेण जनताया अपेक्षानुसारेण कार्यं विधास्यते इति विश्वासम् अभिव्यनक्। सभापतिः देउवा सर्वेषां राजनीतिक दलानां मध्ये धृताया सहमतेः आधारेण संघीय गणतन्त्रात्मक व्यवस्थां समावेशितां च इतोऽपि सुदृढां विधातुं संविधानस्य संशोधनं भविष्यति इति अभाषत। नेकपा माओवादी केन्द्रस्य उपमहासचिवः पूर्वार्थमन्त्री च वर्षमान पुन सर्वकारेण मिथ्या तथ्याङ्कान् प्रस्तुत्य जनतायां भ्रम प्रसारितो स्थिति कारणात् जनतायां नैराश्यं वर्धमानमस्तीति अवोचत। उपवेशे राष्ट्रिय स्वतन्त्र दलस्य सभापतिः रवि लामिछाने सर्वकारः सुशासनस्य पक्षे अग्रेसरतीत्यत्र विश्वासो नास्तीति अवोचत्। राष्ट्रिय प्रजातन्त्र दलस्य अध्यक्ष राजेन्द्र लिङ्गदेन सर्वान् सम्हत्य नूतनां व्यवस्थां निर्माय देशम् अग्रे वर्धनीयमिति अभाषत। नेकपा एकीकृत समाजवादी दलस्य अध्यक्ष माधव कुमार नेपाल विगतकालिक त्रुटीनां समीक्षां विधाय जनताया आशाम् अपेक्षां च पूरयितुं सर्वकारम् अनुरुणत। तत्पूर्वम् उपवेशस्य प्रारम्भे सांसद उपसभामुखिन इन्दिरा राणा इत्यनया विहितस्य प्रवेशाज्ञाया कृते अमेरिका देशस्य दूतावासाय संस्तुतिकरणस्य विषये ज्येष्ठ नागरिकेभ्य राष्ट्रिय परिचय पत्रस्य निर्माणे जायमानस्य काठिन्यस्य विषये च सदनस्य सर्वकारस्य च ध्यानाकृष्टवन्तः। उपवेशस्य आकस्मिक समये सांसद रामहरि खतिवड़ा दामोदर पौडेल वैरागी माधव सापकोटा सुमना श्रेष्ठश्च धारणां व्यक्तवन्तः। सांसदः भूस्खलनेन जलविप्लवेन च सम्भूतानां क्षतीनां संकटस्य च विषयेषु सर्वकारस्य ध्यानम् आकृष्य यथाशीघ्रम् उद्धाराय उपचाराय सहयोगाय च ध्यानं दातुं संकटापन्नानां वसतीनां स्थानान्तरणं कर्तुं च सर्वकारस्य ध्यानाकर्षणं विहितवन्तः। प्रतिनिधिसभायाः अपर उपवेशः अद्य दिवा एकवादने वसति। वाग्मती प्रदेशस्य प्रदेश प्रमुखेण यादव चन्द्र शर्मणा नूतन सर्वकारस्य संघटनाय आहूतम् अवर्तते। प्रदेश प्रमुख शर्मा नेपालस्य संविधानस्य अष्टाषष्ट्यधिक शततम्या धाराया द्वितीयोपधाराया अनुसारेण द्वयोः तदधिकानां वा दलानां समर्थनेन बहुमतं प्राप्तुं योग्य प्रदेशसभा सदस्यः मुख्यमन्त्री पदस्य कृते श्वः मंगलवासरे अपराह्नस्य पञ्चवादनस्य अभ्यन्तरे स्वत्वं प्रस्तोतुम् आहूतो वर्तते। तत्पूर्वं वाग्मती सभायाः ह्यस्तनोपवेशे प्रदेशस्य मुख्यमन्त्रिणा शालिग्राम जमकटेल इत्यनेन त्यागपत्रं प्रदत्तमासीत्। प्रदेशसभायाः ह्यस्तनोपवेश मुख्यमन्त्री जमकटेलः सम्बोधयन् स्वस्य नेतृत्वस्य सर्वकारस्य अल्पमते प्राप्तवान् सर्वकाराय निकाष प्रधानस्य उद्देश्येन बागमती प्रदेश प्रमुखस्य यादव चन्द्र शर्मणः समक्षम त्यागपत्रम् प्रदातुम् घोषणाम् विहितवान् आसीत्। लुम्बिनी प्रदेशे नूतन सर्वकारस्य संघटनाय आहूतमस्ति। प्रदेश प्रमुख अमिक शेरचन संविधानस्य अष्टाषष्ट्यधिक शततम्या धाराया द्वितीयोपधाराया अनुसारेण नूतन सर्वकारस्य संघटनाय अद्य सोमवासरस्य सायं सार्ध षड्वादनं यावत् स्वत्वं प्रस्तुतुम् आहूतवान् वर्तते। तत्पूर्वम् अल्पमतावस्थायां प्राप्ते पश्चात् मुख्यमन्त्रिणा जोगबहादुर महराभिधेन ह्य उपविष्टे प्रदेशसभाया उपवेशे त्यागपत्रम् प्रदातुम् घोषणा विहिता आसीत्। केन्द्रे नेपाली कांग्रेस नेकपा एमाले दलयोर्मध्ये विहिताया सहमते अनुसारेण लुम्बिनी सर्वकार नेतृत्वम् अथ परम् एमाले दलेन विधास्यते। एतदनुसारेण लुम्बिन्याम् एमाले संसदीय दलस्य नेत्रा लीला गिरी इत्यनेन मुख्यमन्त्री पदाय अद्य स्वत्वं प्रस्तुतुम् पूर्व कार्यम् विहितम् वर्तते। नेकपा दलस्य संस्थापक महासचिवस्य पुष्पलाल श्रेष्ठस्य षट्चत्वारिंशत्तम स्मृति दिवस विविधै कार्यक्रमैस्सह अद्य समायोज्यमानो वर्तते। पुष्पलाल श्रेष्ठेन षडुत्तर द्विसहस्रतम वैक्रमादस्य वैशाख मासस्य दशमे दिवसे नेकपा दलस्य स्थापना विहिता आसीत। एकाशीत्युत्तर एकोनविंशति शततम वैक्रमादस्य आषाढ मासस्य पञ्चदशे दिवसे रामेछाप जनपदस्य भंगेरी नामके स्थाने जात पुष्पलाल श्रेष्ठ पञ्चत्रिंशदुत्तर द्विसह सहस्रतम वैक्रमाब्दस्य श्रावण मासस्य सप्तमे दिवसे भारतदेशे उपचारस्य क्रमे दिवंगतः आसीत। पुष्पलाल स्मृति दिवसस्य अवसरे नेकपा एमाले दलेन नेकपा एकीकृत समाजवादी दलेन च विविधा कार्यक्रमाः विधीयमानाः सन्ति। बंगलादेशे विधीयमानस्य विद्यार्थिनाम् आन्दोलनस्य कारणेन प्रभावितेषु नेपाली विद्यार्थिषु ह्य विंशत्यधिक शतचतुष्टयं जनाः स्वदेशं प्रत्यागताः वर्तन्ते। ह्य आकाशमार्गेण पञ्चदशाधिक शतं विद्यार्थिनः अवशिष्टः पञ्चाधिक शतत्रयं विद्यार्थिनः काकड़भिट्टा सीमा प्रवेश बिन्दुतः स्वदेशं प्रत्यागताः सन्ति इति अध्यागमन विभागस्य महानिर्देशकः कोशहरी निरौला अज्ञापयत्। परराष्ट्र मन्त्रालयेन बंगलादेशात् स्वदेशम् आगन्तुक कामानाम विद्यार्थिनाम कृते सहजीकरणम विधीयमानम वर्तते। अत्रान्तरे बंगलादेशस्य सर्वोच्च न्यायालयेन अस्य वर्षस्य जून मासस्य पञ्चमे दिवसे विहितः आरक्षण सम्बद्ध निर्णयः निरस्तीकृतो वर्तते। मासात् पूर्वम् अवरस्तर न्यायालयेन अष्टादशाधिक द्विसहस्रतम ख्रीष्टाब्दे सर्वकारीय सेवायाम् आरक्षणस्य अप्रदानत्वेन विहितायाः सर्वकारस्य अधिसूचनायाः विपरीततया आरक्षणस्य पक्षे निर्णयः श्रावितः आसीत। आरक्षण प्रदानस्य निर्णयेन देशव्यापी रूपेण प्रहरिणः विश्वविद्यालयानां विद्यार्थिनां च मध्ये संघर्षः सृष्टः आसीत। आन्दोलनस्य क्रमे एकपञ्चाशदधिक शतं जनाः मृताः सन्ति।